ಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತಾನ ಶೃಣ್ವನ್ ನೋದಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಂಜವಭೂತೋತಯಿಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತಯಿಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾ ಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನುರಘೋರಾ ಪಾಪಕಾಶಿನೀ ದಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೆ ಬಿವರ್ಷಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಗುರುಮಾಹಿದುಂಸಿ ಪುರುಷಂ ಜಗತೆ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತೆ ಅಧ್ಯವೋಚತಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕೆ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂಭಯಂ ಸರ್ವಾಶ್ಚಯಾದು ಧಾನ್ಯಃ ಅಥೋ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಃ ಸುಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರುತ ಸಹಸ್ರಚೋ ವೈಶಾಗುಂ ಹೇಡಯೇಮಹೇ ಅಸಭ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾ ನೋಹಂ ತೇಭ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋಜ್ಯಾ ಯಾಚ ದೇಹಸ್ಥೈಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತಜ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶದೇಶು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಂ ಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಪ್ರಪತ್ತಿ ನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಶೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿ ಯಾ ದೇಹೇ ದುರ್ಮೀಢುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾತತಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಯಿಶುಧಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. namo hiranyabhavi senanye dishancha pataye namo namo vrikshebhyo harikeshebhyo pashunam pataye namo namah saspinjadaya dvishimate pathinam pataye namo namo babhrushaya vibhyadhinennanam pataye namo namo harikeshayopavitine pushtanam pataye namo namo bhavasya hetyai jagatam pataye namo namo rudraya tatavine kshetranam pataye namo namah sutaya hanjaya vananam pataye namo namo rohitaya sthapataye vrikshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhuvantaye varivastritaya ushadhinam pataye namo namo ucchair ghoshaya krandaya devaktinam pataye namo namo krishna vidaya dhavate sattvanam pataye namaha namah sahamanaya nivyadina agyadininam pataye namo namah kaguhaya nishangine senanam pataye namo namo nishangina yishudhimate taskaranam pataye namo namo vanchate parivanchate stayunam pataye namo namo nicherave paricharayaranyanam pataye namo namo svigavibhyo jighagum sadhyo mushnatam pataye namo namo simadhyo raktam charabhya prakruntanam pataye namo namo ushnishine giricharaya kulunchanam pataye namo namo ishumabhyo dhanvavibhyaschavo namo namo atanvanebhya pratidadhanebhyaschavo namo namo ayachadhyo visujadhyaschavo namo namo syadhyo vidyadhyaschavo namo namo asinebhyaschayanebhyaschavo namo namo svabhyo jagratyaschavo namo namo stishtabhyo dhavadhyaschavo namo namo sabhabhyas sabhapadibhyaschavo namo namo ashvebhyo ashvapadibhyaschavo namaha namo abhyadhinibhyo vividhyam devyaschavo namo namo ugaṇabhyastrigumhadebhyaschavo namo namo grihasthebhyo grihasthapadibhyaschavo namo namo pradebhyo pratapadibhyaschavo namo namo ganebhyo ganapadibhyaschavo namo namo virubhebhyo vishvarubhebhyaschavo namo namo mahabhyah chullagebhyaschavo namo namo rathibhyo rathebhyaschavo namo namo rathebhyo ratapadibhyaschavo namo namo senabhyassenanibhyaschavo namo namah shatrubhyah sangrahetrubhyaschavo namo namah rakshabhyo rathakarebhyaschavo namo namah kularebhyah karmarebhyaschavo namo namah vunjishtebhyo nishadebhyaschavo namo namah yishurvibhyo dhanvakrubhyaschavo namo namo mrigayubhyashvanibhyaschavo namo namah shvabhyashvapadibhyaschavo namah नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकंठाय च नमः कपत्तिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मेधुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाधिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्ण्याय जावस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च भुग्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय च अवधान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च अवभिन्दते च नमो वर्मिणे च वरूचिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो वृन्दभ्याय च अनन्याय च नमो विष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमस्तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सूत्याय च सरस्याय च नमो नाद्याय च वैशंताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीत्याय च गोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय जालाद्याय च नमः षष्ठ्याय च फेन्याय च नमः सिगत्याय च प्रवाह्याय च नमः हिरण्याय च प्रभक्षाय च नमः किगुंशिलाय च क्षयणाय च नमः कवर्दिने च बुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः तल्प्याय च गेह्याय च नमः गाढ्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरिद्याय च नमो लोभ्याय चोलभ्याय च नमः ऊर्ध्याय च सूम्याय च नमः पर्णाय च पर्णशद्याय च नमो पहुरमाणाय च विघ्नदे च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विच्छिनकेभ्यो नमो विचिम्भकेभ्यो नम आनिर्हतेभ्यो नम आमेवकेभ्यः द्रापे अन्धसस्पदे दरिद्रं नीललोहिता येषां पुरुषाणामेषां पशूनां माभिर्मारोम येषां किञ्च नाम मते याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे दयानो मृडजीवसे इमागुं रुद्राय तवसे कवद्दिने क्षयद्वीराय प्रभरामहे मतिम् यता नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता ददश्यामदवरुद्रप्रणीतो मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षितम् मानो वधेः पितरम् मातमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आराध्ये गोघ्न उद पूरुषघ्ने क्षयद्वीराय सुन्नमस्मेते अस्तो रक्षा च नो अधि च देव रोह्यता च न शर्म यच्छद्विबर्हा सुविश्रुतम् गत्त सदन्युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यम् ते अस्मन्निवन्तु सेना परिणो रुद्रस्य हेतुर्वृणक्तु परिद्वेषस्य दुर्मतिरघायो अवस्थिरा भगवद्यस्तनुष्वमीत्वस्तोकाय धनयाय मृडया मीनुष्टमशिवतमशिवो नः सुमना भवा परमे वृक्ष आयुधम् निदाय कृत्यम् वसान आचरपिनाथम् बिभ्रदागहि विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निवन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या देशागुम् सहस्रयो जने वतन्वानि तन्वसे अस्मिन् महज्जर्णवेऽङ्करिक्षे भवा अधि నీలగ్రీవాశితికంఠ శర్వ అధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రావుపశ్రితాః యే వృక్షేషు సస్మిన్ జరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికా సట్టపద్మినః యే అన్నేషు వివిధ్యంతి వాత్రేషు పిబతో జనాన్ యే పథాం పథి రక్షయ ఐలభృదా వ్యభ్యుధః యే తీర్థాని ప్రచరంతి సుఖావంతో నిషంగిణః ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే దేశాగుంసహస్రయోజనే వధన్వారి తన్మసే నమో రుద్రేభ్యో యే పృథివ్యా యేంతరిక్షే దివ్యే శామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచేద్దశ దక్షిణా దశ ప్రదిచేద్దశోదిచేద్దశోద్వాస్తేభ్యో నమస్తే నో మృడయంతు దేయం ష్మో యశ్చ నోద్వేష్టిదం భోజం భే దదామి త్రయంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వా భువనా విభేష తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యోర్మత్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవయజామహే భృజ్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యురు మే పాహి తముష్టుహి యస్విషు సుధన్ వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమోభిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివా విమర్శనః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణు సజోషసే మా వర్ధంతు వాంగిరః యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోహశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే బాణశ్చ మే ధ్యానశ్చ మే సుశ్చ మే చిత్తం చ మహావేదం చ మే వాక్ చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మహోజశ్చ మే సహశ్చ మాయుశ్చ మే జరా చ మాత్మా చ మే ధనుశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరుగుంషి చ మే శరీరాణి చ మే జ్యేష్ఠం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ मे मरुतश्च महेन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च महेन्द्रश्च मेऽन्तरिक्षं च महेन्द्रश्च मे द्योश्च महेन्द्रश्च मे दिशश्च महेन्द्रश्च मे मूर्धा च महेन्द्रश्च मे प्रजापतिश्च महेन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च मवुपागुंसुश्च मेन्दर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वान नरश्च मरुदुग्राश्च मेतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुद्वदीयाश्च माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पाग्नीवतश्च मे हारियोजनश्च मे युग्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सुषश्च मे शमसाश्च मे ग्रावाणश्च मे स्वरवश्च मवुपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूरवृक्ष म आधवनीयश्च म आग्नेध्रं च मे अभिधानं च मे गृहाश्च मे सतश्च मे पुरोडाशाश्च मे पशदाश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्यौश्च मे शतक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे होरात्रयो वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेदाम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे द्विजवाच मे ऋजौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे दुर्यवाच मे दुर्यौही च मे पष्टवाच मे पष्टौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे नट्वाश्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिष्ठश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नव विगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे స్తౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంషదిశ్చ మే చతుర్విగుంషదిశ్చ మే షావిగుంషదిశ్చ మే ద్వాత్రిగుంషచ్చ మే షడ్త్రిగుంషచ్చ మే చత్వారిగుంషచ్చ మే చతుశ్చత్వారిగుంషచ్చ మేష్టాచత్వారిగుంషచ్చ మే వాదశ్చ ప్రసవశ్చ విజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ ప్యష్ణియస్యాంత్యాయనశ్చాంత్యశ్చ భౌవనశ్చ భువనశ్చాధిపతిశ్చ ఇళాదేవోర్మనుర్యజ్ఞమి బృహస్పతిరుక్థా మదాని సగుంషిషద్విశ్వే దేవా సూక్తవాచ పృథివీమా ధర్మా మాయిగుంసీర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమదీం దేవేభ్యో వాచముద్యాతనం శుశ్రోషేణ్యా మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయై పితరో ను మదంతో ఓం శాంతి 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 ఓం తచ్చయోరావృణీమహే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షన్ చతుష్పదే ఓం శాంతి 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 సహస్రశీర్షా సహస్రాక్ష సహస్రవాత్ సభూమిం విశ్వతో భృత్వా అత్యధిష్టద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యక్షభవ్యం ఉదామృతత్వశేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా రథోజ్జాయాగుశ్చ పూరుషః పాదోస్య విశ్వా భూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధ్వబుధైః పురుషః పాదోస్యేహాభవాద్గుణః తథో విశ్వం వ్యక్రామత్ శాసనానశని అభి తస్మాద్ విరాడ జాయత విరాజో అధిపోరుషః సజాతో అధ్యరిచ్యత పశ్చాద్భూమిమతో పురః యత్పురుషేణ హవిషా దేవాయజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మయిద్మ శరద్ధరిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిదకృతా దేవాయజ్ఞం తల్వానా అబధ్నన్ పురుషం పశుం తం యజ్ఞం పరిహిషి ప్రౌక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యారుషయశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః సంభృతం వృషదాజ్యం పశుగుస్తాగుశ్చక్రే వాయవ్యాన్ ఆరణ్యాన్ గ్రామ్యాశ్చ యే తస్మాత్ यज्ञात् सर्वभूतः ऋचस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त येके चोभयादतः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं व्यददुः कथिथाव्यकल्पयन् मुखं किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरोदस्य यद्वैष्यः पद्यागं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्थाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीष्णोद्यौ समवर्तत पद्यामोमिर्दिशश्रोत्रा तथा लोकागुम् अकल्पयन् वेदावमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचिद्यतीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् रजिषश्चतस्रः त्वमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्दधेवा तानि धर्माणि प्रथमान्यासन् देहनाथम् महिमानः सजन्दे यत्र पूर्वे साध्या सन्ति देवा अभ्यः सम्भूत पृथिव्यैरसाश्च विश्वकर्मणः समवर्तताधि तस्य द्रष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेदम् पुरुषम् महाङ्गम् आदित्यवर्णम् तमसः परस्तात् त्वमेवम् विद्वानमृत इह भवति नाल्यपन्ता विद्यते यनाय प्रजापतिश्चरदिगर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति भेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे ददब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा असल्वशे श्रीश्चते लक्ष्मीश्च पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनव्यात्तम् इष्टम् मनिषाणाम् अमम् मनिषाणाम् सर्वम् मनिषाणाम् तच्छयम्योरावृणीमहे धातुम् यज्ञाय धातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे षञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ धाधापुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशच्चतस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पदिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायण परो ज्ञाता ज्ञानम् नारायणः परः यच्च किञ्चित् जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अमन्तर्भविष्यदत्सर्वम् व्याप्य नारायणस्थितः आनन्दमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रदीकाशगुम् हृदयम् चाप्यथोमुखम् अथो निष्ठ्याविदस्याम्येनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभित्तुलम् पद्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाचिर्विश्वतो मुखः स्वप्रभुग्विभजम् तिष्ठन्नाहारमजरकविः तिर्यगूर्ध्वमदशायेरश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये मन्निशिका अनीयो द्वाव्यवस्थितः नीलतो यदमध्यस्ताद्विद्युल्लेखे बभास्वरा नीवारशोकवत्तन्वीपीता वा स्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिश्चेन्द्रः सोऽक्षरः परमस्वरात् हृदगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् सह न भवतु सह नौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति विश्रांति शांति अथ पुरुषो वै नारायणो कामयत प्रजा सृजे येति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च कम्बायुज्योतिराव पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणात् द्वादशादित्या रुद्रा बसवः सर्वाणि च छन्दांसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते शिवश्च नारायणः शक्रश्च नारायणः द्यावापृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः भूत्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वं यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रेभ्या हरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनवब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पोषम् गौ भग्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समपरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानधनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो योधीते प्रातरदीयानो रात्रिकृतम् पापम् नाशयति स सायमधियानो दिवसकृतं पापं नाशयति माध्यन्दिनमादित्यादिमुखोऽधियानः पञ्चपातकोपपातकात्रमुच्यते सर्ववेदपारायण पुण्यं लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवं वेद इत्युपनिषत् सहनावतु सहनौ भुनक्तु स वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः निधनपतये नमः निधनपदान्निधाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः सर्वाय नमः सर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमां भवद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो कलविकरणाय नमो बलाय नमो बलप्रमदनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे हस्तु सदा शिवो नमो हिरण्यमाधवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये मिलापतय उमापतये पशुपतये नमो नमः ऋतगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वलेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमोऽस्तु पुरुषो वै रुद्रः सन्महो नमो नमः విశ్వం భూతం భువనం చిత్రం బహుధా జాతం జాయమానం జయతే స్వర్వో యేష రుద్రస్తస్మై రుద్రాయ నమోహస్తో తద్రుద్రాయ ప్రచేతసే మేధుష్టమాయ తభ్యసే వోచేమశంతమగుం హృదే సర్వో యేష రుద్రస్తస్మై రుద్రాయ నమోహస్తో స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహీమహీషా గోబ్రాహ్మణేభ్య శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః